पार्थस्य जन्मदिनम्।
शुभं जन्मदिनं पार्थ, अभिनन्दनम्।
धन्यवादः। त्वम् एकलः कथम्? तव भगिनी कुत्र?
सा मातुलगृहे अस्ति।
कदा सा प्रत्यागमिष्यति?
आगामि सप्ताहे।
अभ्यन्तरं गच्छ, माता अस्ति।
भ्रातः, पश्य, तव बन्धुः आगच्छति।
अरे रमेश, आगच्छ, तत्र किमर्थं तिष्ठसि?
तव कुक्कुरः बुक्कति।
भयं मा कुरु, अत्र आगच्छ, स किमपि न करिष्यति।
नमस्ते भ्रातः, शुभं जन्मदिनम्।
जानासि, एषा मम सहपाठिनी गार्गी। गार्गी, त्वम् आगता, अहम् अतीव प्रसन्ना।
अहमपि अतीव प्रसन्नः। आगच्छ गार्गी, अभ्यन्तरम् आगच्छ।